राम श्रीमद् भागवत महापुराण मूल पाठ श्रीमद् भागवत महापुराण नवम स्कंध 24 अध्याय 24 ट्रेक में।
ओम नमो भगवते वासुदेवाय। श्रीमद् भागवत महापुराणम नवम स्कंध अथ प्रथमोध्याय। राजोवाच मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे। वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च। मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे। वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च। योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया। स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम्। तत्तस्तस्य सुताश्चोक्ता इक्ष्वाकुप्रमुखा नृपाः। तेषाम् वंशम् पृथग् ब्रह्मन् वंश्यानुचरितानि च। कीर्तयस्व महाभाग नित्यम् शुश्रूषताम् हिनः। ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये। तेषाम् नः पुण्यकीर्तीनाम् सर्वेषाम् वद विक्रमान्। सूत उवाच एवम् परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम्। पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित्। श्रीशुक उवाच श्रूयताम् मानवो वंशः प्राचुर्येण परन्तप। न शक्यते विस्तरतो वक्तुम् वर्षशतैरपि। परावरेषाम् भूतानामात्मा यः पुरुषः परः स एवासीदिदम् विश्वम् कल्पान्तेऽन्यन्न किञ्चन। तस्य नाभे समभवत् पद्मकोशो हिरण्मयः। तस्मिन् जज्ञे महाराज स्वयम्भूश्चतुराननः। मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः। दाक्षायण्याम् ततो दित्याम् विवस्वान् अभवत् सुतः। ततो मनुः श्राद्धदेवः संज्ञायामास भारत। श्रद्धायाम् जनयामास दशपुत्रान् स आत्मवान्। इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान्। नरिष्यन्तम् प्रषद्धम् च नभगम् च कविम् विभुः। अप्रजस्य मनोः पूर्वम् वसिष्ठो भगवान् किल। मित्रावरुणयोरिष्टिम् प्रजार्थमकरोत् प्रभुः। तत्र श्रद्धा मनोः पत्नी होतारम् समयाचत। दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता। प्रेषितोऽध्वर्युणा होता ध्यायंस्तत्सु समाहितः। हविषि व्यचरत्तेन वषत्कारम् गृणन् द्विजः। होतुस्तद्व्यभिचारेण कन्येला नाम साभवत्। ताम् विलोक्य मनुः प्राह नातिहृष्टमना गुरुम्। भगवन् किमिदम् जातम् कर्म वो ब्रह्मवादिनाम्। विपर्ययमहो कष्टम् मैवम् स्याद् ब्रह्म विक्रिया। यूयम् मन्त्रविदो युक्तास्तपसा दग्धकिल्बिषाः। कुतः सङ्कल्प वैषम्य मन्त्रितम् विबुधेष्विव। तन्निशम्य वचस्तस्य भगवान् प्रपितामहः। होतुर्व्यतिक्रमम् ज्ञात्वा बभासे रविनन्दनम्। एतत् सङ्कल्प वैषम्यम् होतुस्ते व्यभिचारतः। तथापि साधयिष्येते सुप्रजास्त्वम् स्वतेजसा। एवम् व्यवसितो राजन् भगवान् स महायशाः। अस्तौ शीदादिपुरुषमिलायाः पुंस्त्वकाम्यया। तस्मै कामवरम् तुष्टो भगवान् हरिरीश्वरः। तदा विलाभवत्तेन सुद्युम्नः पुरुषर्षभः। स एकदा महाराज विचरन् मृगयाम् वने। मृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम्। प्रगृह्य रुचिरम् चापम् शरांश्च परमाद्भुतान्। दंशितोऽनु मृगम् वीरो जगामदिशमुत्तराम्। स कुमारो वनम् मेरो रथस्तात् प्रविवेशः। यत्रास्ते भगवान् छर्वो रममाणः सहो मया। तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरः। अपश्यत् स्त्रियमात्मानमश्वम् च वडवाम् नृप। तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम् दृष्ट्वा विमनसो भूवन् वीक्षमाणाः परस्परम्। राजोवाच कथमेवम् गुणोदेशः केन वा भगवन् कृतः। प्रश्नमेनम् समाचक्ष्व परम् कौतूहलम् हिनः। श्रीशुक उवाच एकदा गिरिशम् द्रष्टुम् ऋषयस्तत्र सुव्रताः। दिशो वितिमिराभासाः कुर्वन्तः समुपागमन्। तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम्। भर्तुरङ्कात् समुत्थाय नीवीमाश्वथ पर्यधात्। ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गम् रममाणयोः। निवृत्ताः प्रययुस्तस्मान् नरनारायणाश्रमम्। तदिदम् भगवानाः प्रियायाः प्रियकाम्यया। स्थानम् यः प्रविशेदेतत् स वै योषित् भवेदिति। ततो ऊर्ध्वम् वनम् तद्वै पुरुषा वर्जयन्ति हि। सा चानुचरसंयुक्ता विचचारवनाद्वनम्। अथ तामाश्रमाभ्यासे चरन्तीं प्रमदोत्तमाम् स्त्रीभिः परिवृताम् वीक्ष्य चकमे भगवान् बुधः सापितम् चकमे सुभ्रूः सोमराजसुतम् पतिम् स तस्याम् जनयामास पुरुरवसमात्मजम् एवम् स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः सस्मारस्वकुलाचार्यम् वसिष्ठमिति शुश्रुम स तस्य ताम् दशाम् दृष्ट्वा कृपया भृशपीडितः सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् स्वाम् च वाचमृताम् कुर्वन्निदमहविषाम् पते मासम् पुमान् स भविता मासम् स्त्री तव गोत्रजः इत्थम् व्यवस्थया कामम् सुद्युम्नोऽवतु मेदिनी आचार्यानुग्रहात् कामम् लब्ध्वा पुंस्त्वम् व्यवस्थया पालयामास जगतीम् नाभ्यनन्दन् स्म तम् प्रजाः तस्योत्कलो गयो राजन् विमलश्च सुताश्रयः दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ततः परिणते काले प्रतिष्ठानपतिः प्रभुः पुरूरवसौत्सृज्य गाम् पुत्राय गतो वनम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे इलोपाख्याने प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।